एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपाली कांग्रेस दलस्य केन्द्रीय कार्यसमिते ह्य प्रारब्धे उपवेशे विभिन्नानि चत्वारि प्रतिवेदनानि प्रस्तुतानि सन्ति। उपवेशे संघस्य प्रदेशानां च सर्वकारेषु नेपाली कांग्रेस दलस्य सहभागिता गतिविधिभिः सम्बद्धं प्रतिवेदनं प्रस्तुवन् नेपाली कांग्रेस दलस्य उपसभापतिः उपप्रधानमन्त्री च पूर्णबहादुर खड्का विपुल दलस्य कारणेन नेपाली कांग्रेस दले सर्वाणीय राजनीतिक दलानि शैव नीत्वा अग्रे संचलनात्मकम् जनतायै परिवर्तनस्य अनुभूति प्रदापनात्मकम् च दायित्वम् अस्तीति अवोचत। उपप्रधानमन्त्री खड्का अकथयत् जनता दलम् सर्वकारे सम्मिल्य शोभन कार्याणि करोतु इति अपेक्षते, इत्यतः सर्वकारेण जनतायै उत्साहवर्धकानि प्रेरकाणि च कार्याणि विधातव्यानि। केन्द्रीय कार्यसमितेः उपवेशे नेपाली कांग्रेस दलस्य महामन्त्री गगन कुमार थापा दलस्य वार्षिक कार्ययोजनां प्रस्तुवन् भाद्रमासस्य पञ्चदश दिवसस्य अभ्यन्तरे दलस्य भातृसंगठनेभ्य पूर्णता प्रदीयते। भाद्रमासान्तं यावत् सर्वाणि भातृसंगठनानि दलस्य केन्द्रीय कार्यालये वार्षिक कार्ययोजनां प्रस्तोतुं निर्दिश्यन्ते चेति अवदत्। महामन्त्री थापा दलस्य विधाने अष्टाचत्वारिंशतो विभागानां व्यवस्थायां सत्यमपि द्वाविंशतिं विभागान् वर्धयितुमपि प्रस्तावं प्रास्तौत्। उपवेशे नेपाली कांग्रेस दलस्य प्रमुख सचेतक पदीयो रमेश लेखक संसदी दलस्य भूमिका सम्बद्धं प्रतिवेदनं प्रस्तुवन् संसदी विपुलतम दलस्य रूपेण गठबन्धनस्य सर्वकाराय स्थायित्वं दातुं कांग्रेस दलेन तदनुसारेण भूमिका निर्वोढव्येति अगदत। उपवेशे अनुशासन समितेः संयोजकः आनन्द ढुंगाना समित्या निर्मितं प्रतिवेदनं निर्वाचन परिचालन समितेः संयोजकः गोपाल मान श्रेष्ठ समितेः प्रतिवेदनं च प्रस्तुतवन्तौ। तत्पूर्वं उपवेशस्य प्रारम्भे कांग्रेस दलस्य महामन्त्रिणा विश्वप्रकाश शर्मणा सामयिक राजनीतेः आर्थिक सामाजिक परराष्ट्र सुशासन संगठन सम्बद्धायाः कार्ययोजनायाः नीति महाधिवेशनस्य विभागानां संगठनस्य च विषयेषु विमृश्यते इति ज्ञापितम् आसीत्। केन्द्रीय समितेः उपवेशे अद्य एतेषां विषयाणां विमर्शनं प्रारभते। नेपाली कांग्रेस दलस्य केन्द्रीय कार्यसमितेः अपरोपवेशः अद्य पूर्वाह्नस्य एकादशवादने पुनः वसति। राष्ट्रिय योजनायोगस्य उपाध्यक्ष डा मीनबहादुर श्रेष्ठ अल्पविकसितान् देशान् सहयोक्तुं विश्व समुदायम् अनुरुणद्धि। अमेरिका देशस्य न्यूयोर्कस्थाने संचलन्तम् उच्चस्तरीय राजनीतिक मञ्चम् सम्बोधयन् उपाध्यक्ष श्रेष्ठ दोहा कार्ययोजनायाः यथासमयम् पूर्णरूपेण क्रियान्वयनम् सुनिश्चेतुम् नवप्रवर्तनाय प्रविधि हस्तान्तरणाय च सहयोक्तुम् च विश्व समुदायम् अन्वरुणत्। उपाध्यक्षः श्रेष्ठ बहुपक्षीयतायाः महत्वे विश्वव्यापी वित्तीय संरचनायाः सुधारस्य आवश्यकतायां च बलं प्रादात्। उपाध्यक्षः श्रेष्ठ अल्पविकसित राष्ट्रेषु विद्यमानस्य संकटस्य प्रभावं प्रकाशयन् अगदत् अल्पविकसित राष्ट्रेषु स्थिर विकास लक्ष्यस्य योजनायै कार्यक्रमाणां क्रियान्वयनाय च तीव्रता प्रदातव्या। प्रधानमन्त्रिणा पुष्पकमलदाहाल प्रचण्डस्य धर्मपत्न्याः स्वर्गीयायाः सीता दाहालस्य निधनस्य सप्तमे दिवसे ह्यो बालवाटारस्थिते प्रधानमन्त्री निवासे श्रद्धाञ्जलि कार्यक्रमः आयोजितः। श्रद्धाञ्जलि कार्यक्रमे प्रधानमन्त्री प्रचण्डः शोकस्य अवधौ सर्वेषां समवेदनया साहाय्येन च पीडातो बहिरागन्तुम् आत्मने सहयोगः प्राप्तोऽस्तीति अवदत्। प्रधानमन्त्री प्रचण्डः धर्मपत्न्याः स्वर्गीयायाः सीता दाहालस्य उपचाराय राज्यात् किमपि सौविध्यम् न गृहीतमिति समस्पष्टयत्। प्रधानमन्त्री प्रचण्डः स्वर्गीयायाः सीता दाहालस्य उपचारे संलग्नेभ्यः सर्वेभ्यः चिकित्सकेभ्यो धन्यवादम् व्याहरत्। प्रधानमन्त्री प्रचण्डः शोकस्य अवधौ मित्रराष्ट्रैः कूटनीतिक जगता राजनीतिक दलैः संचारकर्मिभिः कर्मचारिभिः सुरक्षाकर्मिभिः साहित्यकारैः बुद्धिजीविभिश्च सर्वैः व्यक्ताभ्याम् संवेदना सहानुभूतिभ्याम् पीडाम् समयितुम् साहाय्यम् वयम् प्राप्तमिति ब्रुवन् एतदर्थम् आभारम् धन्यवादम् च अभिव्यनक। श्रद्धांजलि कार्यक्रमे उपराष्ट्रपतिः रामसाहेब प्रसाद यादवः, प्रधान न्यायाधीशः हरिकृष्ण कार्की, प्रतिनिधि सभायाः सभामुख देवराज घिमिरे, राष्ट्रिय सभायाः अध्यक्ष गणेश प्रसाद तिमल सिन्हा, पूर्वोपराष्ट्रपति, पूर्व प्रधानमन्त्रिणः, राजनीतिक दलानां शीर्ष नेतारः, उप प्रधानमन्त्रिणौ, मन्त्रिणः, सांविधानिक आयोगानां पदाधिकारिणः, कूटनीतिक नियोगानां प्रतिनिधयः, प्रदेश प्रमुखाः, मुख्यमन्त्रिणः, सांसदाः, विभिन्नानां संघ संस्थानां प्रतिनिधयः, शुभेच्छुकाश्च उपस्थिताः आसन्। श्रद्धांजलि कार्यक्रमे सम्झनामा कमरेड सीता दाहाल इति नामकं वृत्तचित्रमपि प्रदर्शितम् आसीत्। प्रतिनिधि सभायाः उद्योग वाणिज्य समुपभोक्तृहित समितौ शिलाखण्ड बालुका खन्युद्योगानां नवीकरणस्य समस्यायाः समाधानस्य विषये सम्बद्ध पक्षै सह विमृष्टं वर्तते। समितेः सिंहप्रासाद वर्तिनी संसद सचिवालये ह्य उपविष्टे उपवेशे सांसदाः आराष्टं शिलाखण्डोद्योगेषु पिहितेषु सत्सु विकासस्य कार्याणि पूर्णतः अवरोत्स्यन्ते इत्यतः यथासम्भवं शीघ्रं समाधानं विधातुं बलं प्रादुः। व्यवसायिनः नेपालस्य प्रमुखोद्योगस्य रूपेण विद्यमानस्य शिलाखण्डोद्योगस्य सहजतया नवीकरणस्य व्यवस्थां विधातुं सर्वकारम् अभ्ययाचन्त। ललिता निवास भूम्याः प्रकरणे कृत्रिम प्रपत्र निर्माणाभियोगे निगृहीतानां जनानां पक्षतः सर्वोच्च न्यायालये पञ्जीकारितं बन्दी प्रत्यक्षीकरणस्य निवेदनम् आधृत्य अद्यापि श्रवणं विधीयते। न्यायाधीशयोः प्रकाश कुमार ढुङ्गानाभिदस्य नहकुल शिवेदिनश्च संयुक्त न्यायपीठे ह्य विमर्शनस्य क्रमे एव समय समाप्तेः पश्चात् विवादेऽस्मिन् अद्य श्रवणं विधीयते। ललिता निवास भूम्याः कृत्रिम प्रपत्र निर्माणाभियोगे सचिवं कृष्णबहादुर राउत इत्यमुं निर्वाचनायोगस्य पूर्वायुक्तं सुधीर कुमार साहं, व्यवसायिनं मीनबहादुर गुरूङ इत्यमुं, भूशुल्क कार्यालयस्य पूर्व कर्मचारिणं धर्म प्रसाद गौतमं च निगृह्य अनुसन्धानस्य प्रारम्भणस्य पश्चात् सर्वोच्च न्यायालये बन्दीजनैः प्रत्यक्षीकरणादेशाभियाचन निवेदनं पञ्जीकारितम् आसीत्। सर्वोच्च न्यायालयेन काष्ठमण्डपोपत्यकायाः अवकर व्यवस्थापनस्य क्रमे शुल्क ग्रहणस्य ककनी ग्रामपालिकायाः निर्णयं तत्कालं न क्रियान्वेतुम् अन्तरिमादेशः प्रदत्तोऽस्ति। न्यायाधीशेन ईश्वर प्रसाद खतिवडाभिधेन शुल्कस्य ग्रहणं संविधानस्य अष्टाविंशतितम्याः धारायाः अष्टाषष्ट्युत्तर द्विसहस्रतम विक्रमवर्षीया कब अवकर व्यवस्थापनाधिनियमस्य अष्टादश प्रकरणस्य चतुस्सप्तत्युत्तर द्विसहस्रतम विक्रमवर्षीयस्य स्थानीय सर्वकार सञ्चालनाधिनियमस्य द्वाषष्टेः प्रकरणस्य च विपरीतं दृष्टम् इत्यतः एवम् आदेशः प्रदत्तो वर्तते। ककनी ग्रामपालिकया गताषाढमासस्य ऊनविंशे दिवसे काष्ठमण्डपात् वञ्चरे डाँडा स्थानस्य अवकर व्यवस्थापन स्थले अवकरं नीत्वा गतेभ्य स्वल्पकारक यानेभ्य प्रतियानं प्रतिवारं सहस्रं रूप्यकाणि, विपुलाकारक यानेभ्य प्रतिवारं पञ्चदश शतञ्च रूप्यकाणि ग्रहीतुं निर्णीतम् आसीत्। सप्तरी जनपदस्य कञ्चन रूपनगरपालिकायाम् एकस्याः बालिकायाः सामूहिक बलात्कारस्य आरोपे प्रहरिणा जनचतुष्टयं निगृहीतं वर्तते। निगृहीतेषु चत्वारिंशत् वर्षीयः कैलास इत्युपनाम टेकराज पोखरेल, एकविंशति वर्षीय दीपेश सुवेदी, चतुर्विंशति वर्षीय सुदीप भुजेल, द्वाविंशति वर्षीय मनोज विश्वकर्मा च सन्तीति प्रहरिणा ज्ञापितं वर्तते। पीडितायाः पक्षतः निवेदन प्रदानानन्तरम् एतान् निगृह्य बलात्कारस्य अभियोगे समयसीमां वर्धयितुं सप्तरी जनपद न्यायालये प्रस्तुतमिति सप्तरी प्रहरी प्रवक्ता प्रहरी नायब उपरीक्षक नरेश कुमार सिंह ज्ञापयति। इति समाचारः।